सर्वेभ्यः राम राम राम। श्रूयते वा? अस्तु, पाठस्य आरम्भं कुर्मः। मङ्गलाचरणं कुर्मः प्रथमम्। येनाक्षरसमाम् नायमधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः। वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्। नत्वा सरस्वतीम् देवीम् शुद्धाम् गुण्याम् करोम्यहम् पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्। गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमम् शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। ॐ नमः पाणिनिकात्यायन पतञ्जलिभ्यः शब्दविद्या सम्प्रदाय प्रवर्तकेभ्यः नमो मुनिभ्यः नमो महद्भ्यः नमो गुरुभ्यः। पूर्वस्याम् कक्षायाम् अस्माभिः व्याकरणपरिचयः, अष्टाध्यायीपरिचयः, व्याकरण अध्ययनपद्धतिः इत्यादयः विषयाः अधीताः। वयम् आदौ मङ्गलश्लोकानाम् अर्थम् ज्ञास्यामः। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः। अस्य भावार्थः कः? एषः श्लोकः पाणिनिशिक्षायाम् विद्यते। येन महेश्वरात् अक्षरसमाम्नायमधिगम्य कृत्स्नम् सम्पूर्णम् व्याकरणम् प्रोक्तम्। व्याकरणम् नाम व्याकरणशास्त्रम् प्रोक्तम् सूत्ररूपेण, अष्टाध्यायीरूपेण, पाणिनिपञ्चकरूपेण प्रोक्तम्। तस्मै पाणिनये नमः। महेश्वरात् अक्षरसमाम्नायम्, महेश्वरादेव अक्षरसमाम्नायः निर्गतः इति कथा विद्यते। तत्र ऐवुण् इत्यादि सूत्राणि, माहेश्वरसूत्राणि इत्येव व्यवह्रियन्ते। तत् लघुसिद्धान्तकौमुद्याम् आदौ एव विद्यते, अग्रेपि तस्य विवरणं दीयते। द्वितीयश्लोके इदानीं वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अत्र मुनित्रयं व्याकरणं नाम किम् इति मया पूर्वमेव उक्तम्। अत्र पाणिनिव्याकरणस्यैव त्रिमुनिव्याकरणम् इति व्यवहारः अस्ति, लोके व्यवहारः अस्ति। यतोहि सूत्रकारः पाणिनिः, तेषामेव सूत्राणां वररुचिः इत्यादि रचितवान्। भाष्यकारः पतञ्जलिः सूत्रस्य वार्तिकस्य व्याख्यानं भाष्ये पतञ्जलिमहाभागः कृतवान्। एते त्रयः व्याकरणस्य प्रधानाचार्याः। अतः एतस्य श्लोकस्य अर्थः सूत्रकारं पाणिनिं, वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं च इत्येतत् मुनित्रयम् अहं प्रणतः अस्मि, सदा प्रणतः अस्मि इति भावः। इदानीं सूत्रकारः इत्युक्ते कः इत्युक्ते पाणिनिः। पाणिनिविषये अस्माभिः अधीतम्। पाणिनेः माता दाक्षी, पिता शलङ्कुः। तत्र तस्य जन्मस्थलं शालातुरग्रामः, अद्यतन लाहोर् प्रदेशः। सः क्रिस्तपूर्वसप्तमशतमानतः क्रिस्तपूर्वचतुर्थशतमानपर्यन्तं विदुषाम् अभिप्रायः तस्य कालविषये अस्ति। तत्र युधिष्ठिरमीमांसकाः इति व्याकरणशास्त्रक इतिहास इति एकं ग्रन्थं रचितवन्तः। तस्मिन् ग्रन्थे किञ्चित् पाणिनेः कालविषये बहु दीर्घेन तैः चर्चा कृता। तदवश्यम् अस्माभिः अवलोकनीयम्। अनन्तरं पाणिनेः कृतीनां विषये तु एकः श्लोकः, पूर्वस्यां कक्षायाम् अहं विस्मृतवान् एतत् श्लोकं वक्तुम्। अष्टकं धातुपाठश्च గణపాఠస్తతైవ చ లింగానుశాసనం శిక్ష పాణినీయా అమీక్రమాత్ ఇతి శ్లోకః అస్తి. తత్ర పాణిని పంచకం నామ అష్టాధ్యాయీ సూత్రపాఠః ఆదౌ గణపాఠః తథ సూత్రపాఠః. గణపాఠః అష్టాధ్యాయీ సూత్రపాఠః ధాతుపాఠః ఉణాదిపాఠః లింగానుశాసనం. తదనంతరం శిక్షాగ్రంథ అపి అస్తి యత్ర ఉచ్చారణాదికం ఉచ్చారణ సౌష్ఠవం కథం కరణీయం తత్ర ప్రాతిశాఖ్యాత్ కాంశ్చన సిద్ధాంతాన్ తత్ర స్వీకృత్య శిక్షాగ్రంథం రచితవాన్. జాంబవతీ హరణం ఇది ఏకం కావ్యమపి అస్తి పాణినేః. అత్ర అద్యైవ మయా జ్ఞాతం. ఏతదేవ సంక్షిప్త పరిచయః సూత్రకారస్య. వార్తికకారస్య పరిచయః అపి అస్మాకం అపేక్షితః. వాక్తికకారః దాక్షిణాత్యః ఆసీత్. పాటలిపుత్రం తస్య కార్యక్షేత్రం ఆసీత్. కాలం తు క్రిస్తపూర్వ చతుర్థ శతకం. అష్టాధ్యాయ్యాః వార్తికాని రచితవాన్. తర్హి వార్తికానాం లక్షణం కిమ్ ఇతి అగ్రిమకక్షాయాం సూత్రలక్షణం వార్తికలక్షణం భాష్యలక్షణం ఇత్యాది జ్ఞానం అగ్రిమకక్షాయాం పశ్యామః. భాష్యకారస్య పతంజలేః విషయే తత్ర సాక్షాత్ శేషావతారః ఏవ తే ఇతి ప్రతీతిః అస్తి. తైః యోగసూత్రాణామపి రచనా కృతా. అనంతరం వ్యాకరణసూత్రాణామపి భాష్యకర్తా స ఏవ. యోగేన చిత్తస్య పదేన వాచాం మలం శరీరస్య చ వైద్యకేన యోపాకరోత్తం ప్రవరం మునీనాం పతంజలిం ప్రాంజలిరానతోస్మీతి భాష్య పఠన సమయే వయం మంగళ శ్లోక రూపేణ ఏనం శ్లోకమేవ వయం పఠామః. ఇదానీం తస్య భాష్యకారస్య శేషరాజః నాగనాథః అహిపతిః గోనర్దీయః ఇత్యాది నామాంతరం విద్యతే. తదపి వయం జ్ఞాతుం శక్నుమః. భాష్యకారస్య కాలస్తు క్రిస్తపూర్వ 150 బిసి. ఇదానీం అష్టాధ్యాయీ విషయే పూర్వమేవ అస్మాభిః కించిద్ అధీతం. ఇతోపి అధికం కించిద్ జానీమః. అద్య కించిత్ పుస్తకమపి ఉద్ఘాట్య పశ్యామః. కృపయా సర్వే పుస్తకం ఉద్ఘాటయంతు ఇతి ప్రార్థయే. అష్టాధ్యాయీ పుస్తకం సర్వేషాం హస్తే అస్తి వా? తత్ర చౌకాంబా సురభారతి ప్రకాశన్ ద్వారా ప్రకాశితం అష్టాధ్యాయీ పుస్తకం అస్తి. అగ్రిమకక్షాతః కృపయా యైహి నా ఆనీతం కక్షాకృతే అష్టాధ్యాయీ లఘు సిద్ధాంతకౌముదీ పుస్తకద్వయం అవశ్యం భవితవ్యం అస్మాకం హస్తే. కృపయా ఆనయంతు. అష్టాధ్యాయీ పుస్తకే అష్టౌ అధ్యాయాః సంతి. తత్తు అస్మాభిః ద్రష్టుం శక్యతే. ప్రత్యేకస్మిన్ అధ్యాయే చత్వారః పాదాః సంతి. ఇదానీం ప్రథమాధ్యాయం స్వీకుర్మః. తత్ర ప్రథమః పాదః అస్తి వృద్ధిరాదైచితి ప్రథమం సూత్రం. ఏవమేవ ప్రథమాధ్యాయస్య ద్వితీయ పాదం పశ్యామః. గాంకుటాదిభ్యోన్యనిత్ ఇతి అస్తి. ప్రథమాధ్యాయస్య తృతీయ పాదః భూవాదయో దాతవః ఇతి సూత్రమస్తి. ప్రథమాధ్యాయస్య చతుర్థ పాదే ఆకడారాదేకాసన్యా ఇతి సూత్రమస్తి. ఏవం ప్రథమాధ్యాయః ఇదానీం సంపన్నః. ఏవమేవ ద్వితీయాధ్యాయః తృతీయాధ్యాయః చతుర్థాధ్యాయః అష్టమాధ్యాయ పర్యంతం తత్ర చతుష్పాదాత్మకం అధ్యాయాః సంతి. ఆహత్య ద్వాత్రింశత్ పాదాః సంతి. అత్ర వయం సూత్రాణాం గణనా కుర్మశ్చేత్ ప్రాయః చతుస్సహస్ర సూత్రాణి సంతి. తత్ర సూత్రాణాం విషయే తత్ర వైయాకరణానాం భేదః అస్తి. కౌముదీకారమతేన 3978 సూత్రాణి సంతి. తత్ర ఉత్తరభారతే రామ్లాల్ కపూర్ ట్రస్ట్ ద్వారా ప్రకాశిత అష్టాధ్యాయీ అపి అస్తి. తత్ర సూత్రాణి ప్రాయః న్యూనాని భవంతి. సూత్రాణి న్యూనాని ఇత్యుక్తే భక్షితమితి న. కదాచిత్ సూత్రద్వయం ఏకేన సూత్రేణైవ తత్ర పాఠ్యతే. ఇత్యుక్తే టూ సూత్రాస్ ఆర్ టుగెదర్ టేకన్ యాజ్ వన్ సూత్ర ఇన్ సమ్ ఆఫ్ ది టెక్స్ట్. నాట్ దట్ ద సూత్రాస్ హావ్ బీన్ మిస్డ్ or the there is Pathabheda in the sutras, but the sutra krama, the number of sutras and the sutra krama have got certain changes. Ashtadhyayi sutra pathe asmabhi drashtum shakyate sutrani eva santi vriddhiradeis adeyam gunaha iko guna vriddhi sutranam artaha astiva tatra sutranam artaha astiva ha chandana purohit mahabhagaha uttaram dattavantaha sutranam artaha tu nasti sudha bhagini api uktavati asmabhi drashtum shakyate tatra sutranam artaha nasti udaharanani api nasanti tadapi drashtum shakyate tarhi paninehe rachanakramaha kidrishaha iti asmabhi jnatavyam sutrani prakaranashaha nibaddhani prakaranam namakim idanim pushpadikshit mahabhaga nama vayyakarana vidushi asti sa ekam lokopakarakam karyam kritavati tatra paninehe vyakaranasya prakaranashaha vibhagam kritavati sutranam vibhagam kritavati samskrita bharati dvara tat prakashitam vartate ashtadhyayi sutra patah prakarana nirdesha samanvitah iti ekam pustakam asti tat sarvam kretavyam iti na ekena ashtadhyaya lagu siddhanta kaumudi pustakena alam bhavati parantu sutrani prakaranashah tat katham tatra vibhagah vidyate paninehe kramah katham asti iti samyak darshitam taya mahabhagaya kranim atreva pashyamah prathamadhyayasya prathamapade vriddhiradeis adeyam gunaha iko guna vriddhi nadhatu lopa ardhadatuke niticha didhive vitam halonantara sanyogah mukhanasika vachanonunasikah tulyasya prayatnam savarnam ityadi sutrani santi etani sarvani sanyasutrani etani sarvani sanyasutrani vartante atah prathamadhyayasya prathamapade prathamapadam prayah sanyaprakaranam iti vaktum shakyate తత్తు మధ్యే పరిభాషా సూత్రమపి అస్తి అన్యాని సూత్రాని అపి మధ్యే సంతి పరంతు ఇదాని వృద్ధిరాదే వృద్ధి సంజ్ఞా విధాయకం సూత్రం అదేం గుణః గుణ సంజ్ఞా విధాయకం సూత్రం ఏవం అస్తి ఇదాని ఏకం కార్యం కుర్మః ప్రథమాధ్యాయస్య తృతీయ పాదం స్వీకుర్మః ప్రథమాధ్యాయస్య తృతీయ పాదం ప్రథమాధ్యాయస్య తృతీయ పాదే తత్ర ప్రథమం సూత్రమస్తి భూవాదయో దాతవః ఉపదేశే అజనునాసిక ఇత్ హలంత్యం న విభక్తౌ తుస్మాః ఆదిర్నిటుడవః షః ప్రత్యయస్య చుటు తస్య లోపః ఇతి అస్తి ఇదానీం ఏకం ప్రకరణం నామ కిం ఇదానీం వక్ష్యామి తత్ర ఉపదేశే అజనునాసిక ఇత్ ఇత్యస్మాత్ సూత్రాత్ ఆరభ్య తస్య లోపః పర్యంతం ఇత్ సంజ్ఞా ప్రకరణం విద్యతే అష్టాధ్యాయ్యాం ఇత్ సంజ్ఞా సూత్రాణి యత్ర కుత్రాపి తస్య ప్రయోగః భవతి ఇత్ సంజ్ఞా సూత్రాణి ఏకత్రైవ సంతి తద్ అత్ర ప్రథమాధ్యాయస్య తృతీయ పాదే ఏవమేవ సూత్రాణి ప్రకరణశః నిబద్ధాని ఇత్యుక్తే పాణినేః అభిప్రాయః ఏకస్మిన్ ప్రకరణే ఏకమేవ కార్యం అస్మా పాణినేః అభిప్రాయః తవేకస్మిన్ కార్యం ఏకేన సూత్రేణ వా బహుభిః సూత్రైః వా సంపద్యతే తాని సర్వాణి సూత్రాణి సహ ఏకత్ర నిబధ్నాతి ఏతదేవ ప్రకరణం ప్రకరణశః నిబద్ధాని ఇతి ఉచ్యతే ఇదానీ మయా ఇత్సంజ్ఞా ప్రకరణం ఉక్తం తత్ర నత్వ ప్రకరణం ఇతి అస్తి ఇదానీ వయం రామశబ్దస్య విషయే జానీమః तृतीया विभक्तौ रामेण इति नत्वं भवति। कृष्ण शब्दस्य विषये कृष्णेन इति भवति। देव शब्दस्य विषये देवेन इति भवति। देव शब्दस्य विषये तवर्गीयः नकारः श्रूयते। राम शब्दस्य विषये तवर्गीयः नकारः श्रूयते। एतत् नकारस्य विषये एव नत्वप्रकरणम् इति एकं प्रकरणम् अस्ति। नत्वप्रकरणं कुत्र अस्ति इति पश्यामश्चेत् अष्टमाध्यायस्य चतुर्थपादे अष्टम नत्वप्रकरणम् अस्ति। इदानीम् अष्टमाध्यायस्य चतुर्थपादे रसाभ्यां नोणः समानपदे इति एकं सूत्रं प्रथमसूत्रमस्ति। 39th सूत्रं हलश्चेजुपधात् इति अस्ति। तावत्पर्यन्तं नत्वप्रकरणम् अस्ति। इत्युक्ते नत्वविधायकं यत्र कुत्रापि भवतु, इदानीं प्रणमति इति अस्ति, नमति नमति इत्यस्य तु तवर्गीयः नकारः श्रूयते, प्रणमति इत्यत्र तु अस्माभिः नकारः श्रूयते, तत्कथं केन सूत्रेण इति पश्यामश्चेत् अस्माभिः एकत्रैव द्रष्टव्यम्। नत्वप्रकरणं नत्वं यत्र कुत्रापि भवति, अस्माभिः नत्वप्रकरणम् अष्टमाध्यायस्य चतुर्थपादे एव द्रष्टव्यम्। एतदेव एकस्मिन् प्रकरणे एकं कार्यम् इति पाणिनेः अभिप्रायः। अष्टाध्याय्याः संरचना एवमेव कृतम् अस्ति पाणिनिना। अस्य अष्टाध्याय्याम् एकः प्रधानः अंशः इत्युक्ते सूत्रक्रमः अत्यन्तं प्रधानः। सूत्रक्रमस्य प्राधान्यं विद्यते। तत् कथं कीदृशं प्राधान्यं, यदि सूत्रक्रमः व्यत्यस्तः भवति तर्हि किं भवति इत्यादिकं वयं सूत्राणाम् अर्थज्ञानसमये वयं पश्यामः। अनुवृत्तिः, अधिकारः, असिद्धत्वं, परत्वं, पूर्वत्वम् इत्यादि तन्त्राणि अपि तत्र योजितानि पाणिनिना। टु अण्डर्स्टाण्ड् पाणिनीस् ग्रामर् वि नीड् टु अण्डर्स्टाण्ड् आल् दीस् टेक्निक्स्। These techniques, understanding all these techniques only will enable us to understand the meaning of a sutra. So sutra krama yetesham tantranam jnane naiva ashtadhyayaha sampurna parichayaha bhavishyati. Idanim priya bhagini ekam prashnam prishtavati adhyayasya nama asti va iti prashnam prishtavati. अध्यायस्य नाम नास्ति, पाणिनिना दत्तनाम नास्ति। प्रकरणशः इत्युक्ते तत्र वैयाकरणैः अस्मिन् प्रकरणे नत्वमस्ति, अस्मिन् प्रकरणे षत्वमस्ति, अस्मिन् प्रकरणे तत्र इडागमः भवति, एतदेव धातुप्रकरणम्, अत्रैव स्त्रीप्रत्ययाः सन्ति इत्यादि वैयाकरणैः कृतम्। पाणिनिः किं करोति, एकम् अधिकाररूपेण एकं सूत्रं स्थापयति। अधिकारसूत्रं नाम किम् इति अग्रे जानीमः। कतिविधानि सूत्राणि भवन्ति, तेषां लक्षणं किम् इत्यादि अपि तत्र अग्रिमकक्षाद्वये भविष्यति। एतत् इदानीम् अष्टाध्याय्याः किञ्चित् परिचयं वयं प्राप्तवन्तः। अग्रे भाष्यविषये पश्यामः। महाभाष्यम् इति पतञ्जलिना कृतम्। तत्र एका उक्तिः अस्ति, महाभाष्यं वा पठनीयं, महाराज्यं वा शासनीयम् इति। महाभाष्ये आहत्य 85 आह्निकानि सन्ति। आह्निकम् इत्युक्ते एकस्मिन् आह्निके भगवता पतञ्जलिना लिखितम् इति प्रतीतिः अस्ति। सम्भाषणप्रश्नोत्तरक्रमेण सूत्राणां विषये चर्चा विद्यते। अत्र सूत्रकारस्य सूत्रं स्वीकृत्य वार्तिककारः किमपि वदति, नूतनवार्तिकान् योजयति, सूत्रविषये उदाहरणानि दास्यति। एतत् सर्वं महाभाष्यकारः चर्चां सूत्राणां विषये तत्र पूर्वपक्ष सिद्धांत इत्यादि क्रमेण तत्र शास्त्रीय क्रमेण चर्चा क्रियते तत्र आरोपाः क्रियन्ते किमर्थम् एवम् तम् आचार्येण एवम् उक्तम् आचार्यः नाम पाणिनिः किमर्थम् आचार्येण वृद्धिरादेच इति उक्तम् आदेच वृद्धिः इति किमर्थम् नोक्तम् अदेङ्गुणः अत्र अदेङ्गुणः इति सूत्रम् अत्रैव किमर्थम् स्थापितम् इत्यादि तत्र बहवः प्रश्नाः अस्माभिः तत्र वैयाकरणानां मनसि सम्भाव्यमानाः सर्वे प्रश्नाः तत्र भवन्ति तेषां समाधानानि च भवन्ति अत एव उच्यते यथोत्तरं मुनीनां प्रामाण्यम् इति इदानीम् अत्र अस्माभिः ज्ञातव्यं पाणिनिः प्रथमं तेन अष्टाध्यायी विरचिता तदनन्तरं वार्तिककारः अष्टाध्यायी संरचनामध्ये किमपि योजनीयं वा किमपि अधिकं वक्तव्यं वा किमपि यत्किमपि वक्तव्यं तत्सर्वं वार्तिकैः तेन उक्तं महाभाष्यकारः वार्तिकं सूत्रम् उभयमपि स्वीकृत्य सम्यग्रीत्या परामर्शं कृत्वा तेषां सिद्धान्तं ते वदन्ति अस्य सूत्रस्य अभिप्रायः कः पाणिनेः अभिप्रायः अस्य सूत्रस्य कः इति अन्ते सिद्धान्तरूपेण ते वदन्ति तादृशसिद्धान्तं स्वीकृत्यैव भट्टोजीदीक्षिताः काशिकादिग्रन्थकाराः वृत्तिग्रन्थकाराः सूत्राणामर्थं ते वदन्ति महाभाष्यं पठित्वा एव सूत्राणामर्थं ते वदन्ति इदानीं किञ्चित् पाणिनीयपरम्परायाः वैयाकरणाः के तेषां तत्र क्रमशः कथं तेषां क्रोनालजिकल् आर्डर् मध्ये किञ्चित् अध्ययनं कुर्मः भर्तृहरिः इति अस्माभिः श्रुतं नीतिशतकस्य कर्ता शतकत्रयम् इति तेन सुभाषितग्रन्थम् एकं तेन विरचितम् भर्तृहरिः वाक्यपदीयम् इत्यस्यापि रचयिता अस्ति वाक्यपदीयम् अत्र ब्रह्मकाण्डम् पदकाण्डम् वाक्यकाण्डम् इति त्रयः भागाः सन्ति वाक्यपदीयग्रन्थे भर्तृहरिणा तत्र कारिकाः उपनिबद्धाः कारिका नाम श्लोकः व्याकरण तत्र शास्त्र पठनसमये ये श्लोकाः भवन्ति ते कारिकाः इति उच्यन्ते तत्र एवं भवति कारिकायाः लक्षणं शब्दसंक्षेपः कारिकायाः लक्षणं शब्दसंक्षेपं कृत्वा अर्थसंक्षेपं रक्षन्ति ते श्लोकरूपेण व्याकरणनियमान् वक्ष्यन्ति भर्तृहरिकारिकाः हरिकारिकाः इति प्रसिद्धाः व्याकरणशास्त्रस्य दर्शनत्वं नाम चतुर्दशविद्यास्थानानि भवन्ति व्याकरणशास्त्रस्य दर्शनत्वं स्थापितं भर्तृहरिणा तत्र व्याकरणशास्त्रस्य अध्ययनेन परब्रह्म इत्युक्ते मोक्षप्राप्तिः अस्माभिः कर्तुं शक्यते इति दर्शनत्वं स्थापितं भर्तृहरिणा तत्र वामनजयादित्यौ इति द्वौ वैयाकरणौ स्तः काशिकावृत्तिग्रन्थस्य कर्तारौ अष्टाध्याय्याः सूत्राणां तेनैव क्रमेण इत्युक्ते अष्टाध्यायी स्थापितक्रमेणैव अर्थकथनं वृत्तिकथनम् उदाहरणप्रदानं पूर्वपक्षसिद्धान्तनिर्णयः दलकृत्यादि काशिकायां विद्यते व्याकरणाध्ययनस्य प्राचीनपरम्परायां काशिकायाः अध्ययनमेव सर्वैः क्रियते स्म तत्र तदेव काशिकायाः अध्ययनमेव प्रामुख्यं भजते स्म अन्यः तत्र कैयटः इति महान् वैयाकरणः अस्ति, सः प्रोफेसर् कैयटः प्रायः महामहोपाध्यायः इति प्रसिद्धः, महामहोपाध्यायः कैयटः महाभाष्यस्य प्रदीपव्याख्यानस्य कर्ता। प्रदीप इति महाभाष्यस्य अतिप्रसिद्धं व्याख्यानम्। तेन विना, प्रदीपव्याख्यानेन विना अस्माभिः महाभाष्यस्य गूढार्थावगमनं न कर्तुं शक्यते। अत एव अस्माभिः कैयटसहितमेव महाभाष्यं सर्वैः अधीयते। तदनन्तरं भट्टोजीदीक्षिताः तेषामेव ग्रन्थः वैयाकरणसिद्धान्तकौमुदी, तत्र लघुसिद्धान्तकौमुदी, अनन्तरं वैयाकरणसिद्धान्तकौमुदीं पठामः। वैयाकरणसिद्धान्तकौमुदी नामकग्रन्थः प्रक्रियाक्रमेण ग्रन्थस्य रचना विद्यते, अस्य ग्रन्थस्य रचना विद्यते। प्रौढमनोरमा इति कौमुद्या सिद्धान्तकौमुद्याः स्वकीया टीका अस्ति, भट्टोजीदीक्षितानामेव टीका विद्यते। शब्दकौस्तुभः अष्टाध्यायीक्रमेण तैरपि भाष्यस्य व्याख्यानं कृतम् शब्दकौस्तुभे। वैयाकरणभूषणकारिकाः अपि तैः विरचिताः। एतदतिरिच्य वेदान्तशास्त्रधर्मशास्त्रग्रन्थाः अपि तेन विरचिताः। आधुनिकवैयाकरणानां मार्गदर्शी स एव। दक्षिणभारते लब्धजन्मा ते काश्यां स्वजीवनस्य बहुभागं यापितवन्तः। रघुवर्मबसवराजु नाम महोदयः एकं प्रश्नं पृष्टवान्, पुष्पादीक्षित् पुस्तके प्रकरणानां नामानि तेषाम् आधारेण विभजनं केन कृतम् इति। तत्र सर्वेषां सर्वे तत्र मया तदेव उक्तं, वैयाकरणाः यदा सूत्राणां ज्ञानम् अस्माकमपि विद्यते, अस्माभिरेव ज्ञातुं शक्यते अत्र षत्वमस्ति, अत्र णत्वमस्ति, अत्र इडागमः अस्ति इत्यादि। तत्र छात्राणां सौलभ्यार्थं तद् तैः पुस्तके उपनिबद्धम्। ऑल दि इफ आई कैन आंसर इन इंग्लिश दि वंस यू रीड दि अष्टाध्यायी वी विल ऑल कम टू नो दट वाट ईच सूत्र इज टेलिंग एंड टिल वेर ए प्रकरणा प्रकरणा मीन्स ए प्रकरणा इज रनिंग। सो वंस वी नो दट दिस प्रकरणा इज फ्रॉम दिस सूत्र टू दिस सूत्र, every vyakarana knows. Panini has given it through adhikaras and some adhikara sutras that has been explicitly told by the modern vyakaranas in their granthas. Idani magre gachamah tatra varadarajah iti asmakam lagu siddhanta kaumudyayah karta asti भट्टोजीदीक्षितस्यैव शिष्यः। पूर्वमेव उक्तं मया लघुसिद्धान्तकौमुदी, मध्यसिद्धान्तकौमुदी, सारसिद्धान्तकौमुदी इत्यादयः कौमुद्याधारिताः बालोपयोगिनः ग्रन्थाः तेन विरचिताः इति। पूर्वस्यां कक्षायाम् अस्माभिः अधीतं व्याकरण अध्ययनस्य परम्पराद्वयं विद्यते, प्राचीनपरम्परा नव्यपरम्परा इति। इदानीं तस्यैव किञ्चित् अग्रे तस्य विषये किञ्चित् अधिकं जानीमः। प्राचीनपरम्परा नाम किम्? अष्टाध्याय्याः कण्ठस्थीकरणं प्रथमावृत्तिः इति तत्र उत्तरभारते अस्ति, इदानीमपि प्रचलति, नो चेत् काशिकायाः अध्ययनं, तदनन्तरं महाभाष्य अध्ययनं, धातुवृत्ति इत्यादि ग्रन्थानाम् अध्ययनम्। तत्र प्राचीनपरम्परा इत्युक्ते पूर्णतया अष्टाध्यायीक्रमेणैव अध्ययनं, प्रक्रियाणामपि सूत्राणामपि पूर्णतया अष्टाध्यायीक्रमेणैव अध्ययनम्। अद्यापि उत्तरभारते बहुषु गुरुकुलेषु इयं पद्धतिः अनुस्रियते। नव्यपरम्परा मध्ये अस्माभिः ज्ञातं पुनः अद्यापि तत् प्रस्तौमि. नव्यपरम्परा मध्ये लघुसिद्धान्तकौमुद्याः अध्ययनम् आदौ क्रियते. सिद्धान्तकौमुद्याः अनन्तरं प्रौढमनोरमा तत् भट्टोजिदीक्षितामेव ग्रन्थः. लघुशब्देन्दुशेखरः नागेशभट्टः इति एकः महान् वैयाकरणः अस्ति. तस्य एकं स्लैड् त्यक्तमस्ति. तेषां विषये तद् वक्तव्यमासीत् वैयाकरणपरम्परा मध्ये. तत् योजयामि अस्मिन् स्लैड् मध्ये. लघुशब्देन्दुशेखरः इति एकः ग्रन्थः अस्ति. तदनन्तरं महाभाष्यं सर्वे अध्ययनं कुर्वन्ति. अत्र दक्षिणभारते प्रायः नव्यपरम्परा एव आद्रियते. तत्र इदानीं परम्पराद्वयमपि प्रचलति सर्वत्र. एते परम्परा द्वयोः अपि प्रोस् अण्ड् कान्स्, अड्वाण्टेजस् अण्ड् डिसड्वाण्टेजस् अस्ति. तद्विषये अग्रे वयं जानीमः. नव्यपरम्परायाः मूलं कथं नव्यपरम्परा उत्पन्ना इत्युक्ते, अष्टाध्यायीक्रमेण अध्ययने प्रक्रियाज्ञाने क्लेशः भवति स्म. उदाहरणार्थं मया उक्तं, प्रायः रामः इति रूपस्य प्रक्रियाज्ञानसमये रमुक्रीडायामिति भूवादयो दातवः इति प्रथमाध्यायस्य तृतीयपादे प्रथमं सूत्रं विद्यते. अनन्तरं तृतीयाध्यायस्य तृतीयपादं गत्वा एकस्मिन् सूत्रात् एकं कार्यं सम्पाद्य घञ् प्रत्ययं विधाय, अनन्तरं लशक्वतद्विदे इति इत्संज्ञासूत्रं विधाय, अनन्तरम् अतोपदायाः इति अन्यत् सूत्रं सप्तमाध्याये अस्ति. अनन्तरं प्रथमाध्यायं प्रति पुनः आगत्य, अनन्तरं पुनः चतुर्थाध्यायं प्रति गत्वा तत्र सुप्रत्ययं प्रत्ययविधायकं सूत्रं सम्पाद्य, अनन्तरं पुनः प्रथमाध्यायस्य तृतीयपादे कार्यमस्ति. अनन्तरम् अष्टमाध्यायस्य कार्यम्, अनन्तरं पुनः अष्टमाध्यायस्य तृतीयपादे कार्यम्. एवं रामः इति एकस्य रूपस्य सिद्धये अस्माभिः बहु कष्टः अस्माभिः अनुभूतव्यः भवति. प्रक्रियाज्ञाने अपि क्लेशः भवति. तदर्थमेव नव्यपरम्परायाः आविर्भावः अभूत्. तत्र प्रक्रियानिर्वाहं मनसि निधाय तदनुकूलक्रमेण अष्टाध्यायीसूत्राणां व्याख्यानं प्रक्रियाग्रन्थेषु विद्यते. तादृशग्रन्थेषु एव वैयाकरणसिद्धान्तकौमुदी भट्टोजिदीक्षितानां ग्रन्थः सुप्रसिद्धं विद्यते. नव्यपरम्परा मध्ये अनानुकूल्यं विद्यते. इदानीम् अस्माभिः प्राचीनपरम्परायाः डिसड्वाण्टेज् अस्माभिः अधीतं. नव्यपरम्परा मध्ये अपि डिसड्वाण्टेज् अस्ति. नव्यपरम्परायाः अनानुकूल्यम् अष्टाध्यायीक्रमस्य ज्ञानं न भवति. अष्टाध्यायी कण्ठस्थीकरणं विना यदि यः कोऽपि सिद्धान्तकौमुदीं पठति अनुवृत्त्यादि ज्ञानं न भविष्यति. सूत्रार्थः कथं सम्पन्नः, दीक्षितैः सूत्रार्थः लिखितः, तत् कथम् आगतम् इति अष्टाध्यायीक्रमस्य ज्ञानं विना न सम्भवति. अतः कदाचित् प्रकरणशः ज्ञानं तेषां न भवति. प्रक्रियानिर्वाहस्तु भवति, परन्तु प्रकरणशः ज्ञानं न भवति. इदानीम् इत्संज्ञासूत्राणि कुत्र सन्ति इति तेषां ज्ञानं न भविष्यति. प्रत्येकं सूत्रस्य सम्पूर्णसारस्य अपि ज्ञानं तेषां न भवति. तथापि तत्र पाणिनीयप्रवेशः तर्हि कथं करणीयः, पाणिनीयग्रन्थानां प्रवेशः कथं करणीयः इति चेत्, नव्यपरम्परा एव सर्वैः आद्रियते प्रायः. आरम्भिकदशायां व्याकरण अध्ययनाय बहु उपयोगी इति मनसि निधाय नव्यपरम्परा मध्ये लघुकौमुदी सिद्धान्तकौमुद्याः अध्ययनं कृत्वा अष्टाध्यायी कण्ठस्थीकरणमपि कृत्वा एषः क्रमः अङ्गीकृतः अस्ति. लघुसिद्धान्तकौमुद्याः रचनाक्रमः. लघुसिद्धान्तकौमुद्यामपि प्रक्रियानुगुणमेव प्रकरणशः सूत्राणि निबद्धानि. अत्र प्रायः 1276 सूत्राणि सन्ति. अत्र किम् अस्ति इत्युक्ते सूत्रं विद्यते, सूत्रार्थः विद्यते, उदाहरणं विद्यते, क्वचित् दलकृत्यम् अपि दृश्यते इति साधारणक्रमः एवमस्ति. दीक्षितानां सूत्रार्थः अत्यन्तं निष्कृष्टः इत्युक्ते दि प्रिसैस् अण्ड् आप्ट् दि सूत्रार्थ टोल्ड् बै Bhattoji Dikshita is taken from the Siddhantas of Mahabhashya and is very apt and precise. Every word has got its importance. Evameva Varadarajaha api prayaha Dikshitanam sutrarthameva grinhati. Ataha kvachit bhedopi drishyate sutrarthe tat pashyamaha yatra yatra bhedaha asti aham vadami. सूत्राणाम् अध्ययनसमये इदानीम् एकं कार्यं कुर्मः. लघुसिद्धान्तकौमुदी ग्रन्थम् उद्घाटयामः. तत्र लघुसिद्धान्तकौमुद्याः रचना इत्युक्ते टेबल् आफ् कण्टेण्ट् विषयानुक्रमः इति अस्ति, तदेकं स्वीकुर्मः. कथं वरदराजेन लघुसिद्धान्तकौमुद्याः प्रकरणानि कथं निबद्धानि इति पश्यामः. सर्वैः पुस्तकं स्वीकृतं वा? अस्तु, आदौ संज्ञाप्रकरणं विद्यते, तत्र पश्यामः. आदौ संज्ञाप्रकरणं, तदनन्तरम् अत्सन्धिप्रकरणं, हल्सन्धिप्रकरणं, विसर्गसन्धिप्रकरणम्. इदानीम् अत्र प्रकरणं नाम तत्र वरदराजेन किं कृतम् इत्युक्ते, अत्र हरिओम् वरदराजेन अत्र अत्सन्धिविधायकानि सूत्राणि यत्र कुत्रापि सन्ति, प्रथमाध्याये वा भवतु, षष्ठाध्याये वा भवतु, अष्टमाध्याये वा भवतु, तत्सर्वम् एकत्र आनयति सः. आनीय अत्र अत्सन्धिप्रकरणे स्थापयति. अनन्तरम् अस्माकं कृते अत्सन्धीनां ज्ञानं दास्यति अत्सन्धिप्रकरणम्. एवमेव हल्सन्धिः, एवमेव विसर्गसन्धिः. अजन्तपुल्लिङ्गप्रकरणम्, इदानीम् अजन्तपुल्लिङ्गशब्दाः अस्माभिः तत्र शब्दमञ्जर्यां, तत्र बहवः शब्दाः अस्ति, रामशब्दः, हरिशब्दः, गुरुशब्दः, शम्भुशब्दः, रैशब्दपर्यन्तं, ग्लौशब्दपर्यन्तम् अस्ति. तेषां सर्वेषां शब्दानां तत्र रूप निर्वहणार्थं, प्रक्रियानिर्वाहार्थं यानि यानि सूत्राणि अपेक्षितानि तानि सर्वाणि एकीकृत्य अत्र आनयति, अजन्तपुल्लिङ्गप्रकरणे आनयति, अत्र स्थापयति. अतः अस्माभिः प्रक्रियाज्ञानम् अस्माभिः ज्ञातुं शक्यते. इदानीं पुल्लिङ्गप्रकरणं, रामशब्दः, रामः, रामौ, रामाः, रामः इति रूपसिद्धिः केन सूत्रेण भवति इत्यादिकं झटिति ज्ञातुं शक्यते. एवमेव अजन्तनपुं स्त्रीलिङ्गशब्दाः, अजन्तनपुंसकलिङ्गाः, तत्र हलन्तपुल्लिङ्ग, हलन्तस्त्रीलिङ्ग, हलन्तनपुंसकलिङ्ग, एतद् षट् प्रकरणं यदस्ति तत् शब्दप्रकरणम्. अनन्तरम् अव्ययानि, द्वादयः, द्वादयः, अदादयः, तत्र चुरादयपर्यन्तं दशगणानां प्रकरणं विद्यते. अनन्तरं ण्यन्तप्रक्रिया, तत्र पठति पाठयति इति भवति किल, ण्यन्तप्रक्रिया, निजन्तं, निजन्तप्रक्रिया, सन्नन्तप्रक्रिया, पठितुम् इच्छति, पिपठिष्यति इत्यादि रूप इत्यादीनां रूपसिद्धिः. यङन्तप्रक्रिया बोभूयते, यङ्लुगन्त लिङ्लुगन्तप्रक्रिया, नामधातूनां तत्र नामधातवः नामधातूनां प्रकरणमपि तत्र विद्यते. इदानीं कृष्णायते इति प्रयोगः अस्ति, तत्र एकः एकम् उदाहरणमस्ति गुरुः शिष्यं पुत्रीयति पुत्रमिव आचरति इत्यर्थः गुरुः शिष्यं पुत्रमिव आचरति इत्यर्थः गुरुः शिष्यं पुत्रीयति इति उदाहरणमस्ति तत्र पुत्रीयति इति नामधातुः नामक्रियापदं तत् पुत्रीय इति नामधातुः अस्ति एतादृशशब्दाः अत्र उच्यन्ते खण्ड्वादिगणानामपि पाठः अस्ति आत्मनेपदप्रकरणं परस्मैपदप्रकरणं तत्र कानि कानि नियम के नियमाः सन्ति भावकर्मप्रकरणं कर्मकर्तृप्रकरणं लकारार्थप्रकरणम् इदानीम् अस्माभिः लिङ् विधिलिङ्लकारः विध्यर्थे युज्यते लोट्लकारः आज्ञार्थे अस्माभिः उपयुज्यते तत्र आशीर्लिङ्लकारः आशीर्वादार्थम् अस्माभिः उपयुज्यते लङ्लकारः भूतकालं सूचयितुम् अस्माभिः युज्यते एतत् सर्वं लकारार्थप्रक्रिया प्रकरणे अस्ति कृदन्ते कृत्प्रक्रिया कृदन्तपदानि अस्माभिः वयं तु कृदन्तान् जानीमः तत्र तव तु प्रत्ययः शत्रुप्रत्ययः शानस्प्रत्ययः त्वा लप् तुमुन् इत्यादि प्रत्ययाः सन्ति तत्र कृदन्ते कृत्यप्रकरणस्यापि एतत् सर्वं कृदन्तप्रकरणे उपनिबद्धम् अस्ति पूर्वकृदन्तम् उत्तरकृदन्तम् इति तत्र विभागद्वयं विद्यते उणादिप्रकरणं तत्र मया उक्तं तत्र पाणिनिपञ्चकम् इति अस्ति तत्र उणादिपाठः इति अस्ति केषाञ्चन शब्दानां साधुत्वम् अस्माभिः एतैः सूत्रैः न कर्तुं शक्यते तदा उणादिप्रकरणं पाणिनिना पाठितम् उणादिसूत्रं पठित्वा अस्माभिः सर्वेषां शब्दानां साधुत्वं प्रतिपादयितुं शक्यते विभक्त्यर्थप्रकरणं तत्र प्रथमाविभक्तेः कः अर्थः चतुर्थीविभक्तेः सम्प्रदानम् अर्थः तत्सर्वम् अस्माभिः विभक्त्यर्थप्रकरणे ज्ञातुं शक्यते समासाः अव्ययीभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः समासान्ताः समासान्ताः इत्युक्ते तत्र समासान्तप्रत्ययाः तत्र राजाः सखीभ्यः टच् इति प्रत्ययः भवति इदानीं महाराजः इति भवति राजन् शब्दस्य विषये प्रथमाभक्त्यैकवचनरूपं राजा राजानो राजानः इति अस्ति किन्तु समासे तु महाराजः इति श्रूयते तत् कथम् इत्युक्ते समासान्तप्रत्ययाः तत्र आगच्छन्ति समासान्तप्रत्ययाः तद्वितप्रत्ययाः दशरथस्य अपत्यं पुमान् दाशरथिः रघोः गोत्रापत्यं पुमान् राघवः राघवः इति रामस्यापि नाम अस्ति लक्ष्मणस्यापि नाम अस्ति दशरथस्यापि राघवः इत्यपि अस्ति यतोहि ते सर्वे रघुकुलोत्पन्नाः रघुवंशसमुद्भूताः अतः एतादृश सर्वे एतादृशशब्दाः तत्र तद्दिते इत्युक्ते तद् अपत्यार्थकतद्दितः इत्यादि अपत्याधिकारः इति अस्ति रक्ताद्यर्थाः इति अस्ति चातुरर्थिकाः इत्यस्ति शैशिकप्रकरणम् इति अस्ति विकारार्थकाः प्रत्ययाः भवन्ति एवं ठगधिकारः यदधिकारः चयतोऽधिकारः एते सर्वे प्रत्ययाः तदितप्रत्ययाः त्वतलोरधिकारः त्वतल् इति प्रत्ययः भवति तत्र विशेषतः ग्रामता जनता बन्धुता इत्यादि शब्दाः भवन्ति त्व इति इदानीं मनुष्यस्य भावः मनुष्यत्वम् इति त्वप्रत्ययः अस्ति एतादृश शब्दाः अत्र शब्दानां साधुत्वम् अत्र निर्णीयते भवनाद्यर्थकाः मत्वर्थीयाः प्राग्दिशीयाः प्रागिवीयाः तत्र स्वार्थिकाः स्त्रीप्रत्ययाः तत्र अत्र स्त्रीप्रत्ययानां विषयस्तु अन्ते आगच्छति तत्र सिद्धान्तकौमुद्यां तु स्त्रीप्रत्ययाः मध्ये एव आगच्छन्ति तत् अत्र वरदराजाजेन किं कृतमित्युक्ते स्त्रीप्रत्ययानां कृते बहुषु सूत्राणाम् अपेक्षितं विद्यते इति कारणात् तत्र तद्धितानां विषयः यत्र अष्टाध्याय्यामपि तथैव विद्यते अतः स्त्रीप्रत्ययानां स्त्रीप्रत्ययप्रकरणम् अन्ते योजितं विद्यते एवम् आहत्य लघुसिद्धान्तकौमुद्यां प्रायः 60 लेसन्स् 60 प्रकरणं प्रक्रियानुसारं तत्र वरदराजेन उपनिबद्धम्. I think by this we would have got a holistic view of what Laghu Siddhanta Kaumudi contains. Laghu Siddhanta Kaumudyam Kim Asti Iti Prayaha Idani Asmakam Kinchit Overview Ityukte Sthula Rupena Asmabihi Idani Prayaha Kinchit Gyatam Asti. अत्र रघुवर्मा महोदयः एकं प्रश्नं पृष्टवान्, कारक संबंधि सूत्राणि लघु सिद्धांत कौमुद्यां नास्ति वा इति पृष्टं. तत्र विभक्त्यर्थ प्रकरणे किञ्चित् योजितं. अत्र अस्माभिः ज्ञातव्यं तत्र पाणिनिना सर्वाणि सूत्राणि पाणिनोक्त सर्वाणि सूत्राणि अत्र न सन्ति. अतः कारकप्रकरणं किञ्चित् लघुरूपेण विभक्त्यर्थप्रकरणे अस्ति. विभक्त्यर्थ प्रकरणे 164-167 पेज अस्ति. तत्र प्रातिपदिकलिङ्ग परिमाणवचनमात्रे प्रथमा, कर्तृप्सितं कर्म, स्वतन्त्रकर्ता, ध्रुवमुपाये पादानं, षष्ठीशेषे अपादाने पञ्चमी, आधारोऽधिकरणम् इत्यादीनि सूत्राणि, चतुर्थी सम्प्रदाने इत्यादि सूत्राणाम् अकथितञ्च इत्यादि सूत्राणां पाठः अस्ति. विभक्त्यर्थप्रकरणमेव कारकप्रकरणं किञ्चित् लघुरूपेण अस्ति. इदानीं मङ्गलश्लोकं प्रति गच्छामः. कृपया मङ्गलश्लोकम् उद्घाटयन्तु. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् इति मङ्गलश्लोकः अस्ति. द्विवारं पठामः. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् अत्र अन्वयः एवं विद्यते. अहं शुद्धां गुण्यां सरस्वतीं देवीं नत्वा पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं करोमि. इति अन्वयार्थः. तत्र अहम् इत्यस्य वरदराजः अस्य कर्ता. शुद्धाम् शुद्धामित्युक्ते दोषरहिताम्. गुण्याम् गुण्यामित्युक्ते प्रशस्ताः गुणाः सन्ति अस्याः इति गुण्या इति शब्दः आगच्छति. ताम् इति गुण्याम् प्रशस्ताः गुणाः सन्ति अस्याः इति गुण्या. ताम् प्रशस्तगुणयुक्ताम् इत्यर्थः. सरस्वतीं देवीं वाग्देवताम् नत्वा नमस्कृत्य किमर्थं नमस्करोमि? पाणिनीयप्रवेशाय पाणिनीयव्याकरणशास्त्रे प्रवेशार्थम् पाणिनीयव्याकरणशास्त्रस्य ज्ञानं प्राप्तुं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं करोमि. पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् अहं करोमि इति वरदराजः अत्र स्तौति. अत्र लघुसिद्धान्तकौमुदीम् इत्यत्र कः अर्थः अपेक्षितः इति पश्यामः. ಲಘು ಸಿದ್ಧಾಂತ ಕೌಮುದಿ ಸರ್ವೇ ಸಿದ್ಧಾಂತಾ ವರದರಾಜೇನ ನೋಕ್ತಃ ಅತಃ ಲಘವಃ ಇತ್ಯುಕ್ತೆ ಅಸಮಗ್ರಃ ನಾಟ್ ಇನ್ ಎಂಟೈರಿಟಿ ಬಟ್ ಸಮ್ ಲಘವಃ ಯೇ ಸಿದ್ಧಾಂತಃ ಸಿದ್ಧಾಂತಃ ನಾಮ ಕಿಂ ಊಹಾಪೋಹ ಕೃತ ನಿಶ್ಚಿತ ವಿಚಾರಾಃ ಏವ ಸಿದ್ಧಾಂತಃ ಇತಿ ವಕ್ಷ್ಯಂತೆ ಊಹಾ ಇತ್ಯುಕ್ತೆ ಏಕಂ ವಿಷಯಂ ಜ್ಞಾತುಂ ಅಸ್ಮಾಭಿಃ ತದ್ ವಿಷಯಂ ಜ್ಞಾತ್ವಾ ಕಿಂಚಿತ್ ಗೆಸ್ವರ್ಕ್ ಇತಿ ವದಾಮಃ ಗೆಸ್ವರ್ಕ್ ಇತಿ ಇಂಟ್ಯೂಷನ್ ಗೆಸ್ವರ್ಕ್ ಇತ್ಯಾದಿ ಇತ್ಯಾದಿ ತಂತ್ರಂ ಉಪಯುಜ್ಯ ಅಸ್ಮಾಭಿಃ ವಿಷಯಸ್ಯ ಜ್ಞಾನಂ ಪ್ರಾಪ್ಯತೆ ತತ್ ಊಹಾ ಅಪೋಹ ಇತ್ಯತ್ರ ಎಲಿಮಿನೇಷನ್ ಊಹಾ ಈಸ್ ಅಕ್ಸೆಪ್ಟೆನ್ಸ್ ಅಪೋಹಾ ಈಸ್ ಎಲಿಮಿನೇಷನ್ ವಿ ಅಕ್ಸೆಪ್ಟ್ ಸರ್ಟನ್ ಥಿಂಗ್ಸ್ ಅಂಡ್ ಎಲಿಮಿನೇಟ್ ಸರ್ಟನ್ ಥಿಂಗ್ಸ್ ಅಸ್ಮಾಭಿಃ ಊಹಾಂ ಕೃತ್ವಾ ಕೇಚನ ಅಂಶಾಃ ಸ್ವೀಕ್ರಿಯಂತೆ ಅಪೋಹಂ ಕೃತ್ವಾ ಕೇಚನ ಅಂಶಾಃ ಕೇಚನ ಅಂಶಾನಾಂ ತ್ಯಾಗ ಕ್ರಿಯತೆ ಊಹಾಪೋಹ ಕೃತ ಏವಂ ರೀತ್ಯಾ ಅಸ್ಮಾಭಿಃ ವಿಚಾರಸ್ಯ ದಾರ್ಢ್ಯಂ ಸ್ಥಾಪ್ಯತೆ ವಿಚಾರಸ್ಯ ದೃಢತಾಂ ಸ್ಥಾಪ್ಯತೆ ಊಹಾಪೋಹಾಂ ಕೃತ್ವಾ ಅಸ್ಮಾಭಿಃ ಯೇ ವಿಚಾರಾಃ ನಿಶ್ಚಿತಾಃ ಭವಂತಿ ತೇ ಏವ ಸಿದ್ಧಾಂತಾಃ ಇತಿ ಉಚ್ಯಂತೆ ಅತ್ರ ಲಘು ಸಿದ್ಧಾಂತ ಕೌಮುದ್ಯಾಂ ಅಸಮಗ್ರಾಃ ಯೇ ಸಿದ್ಧಾಂತಾಃ ತೇಷಾಂ ಕೌಮುದಿ ತೇಷಾಂ ಕೌಮುದಿ ಇತ್ಯುಕ್ತೆ ಲೈಟ್ ಮೂನ್ ಲೈಟ್ ಮೂನ್ ಲೈಟ್ ಇತ್ಯುಕ್ತೆ ಕೌಮುದಿ ಇತ್ಯತ್ರ ಲಾಕ್ಷಣಿಕ ಪ್ರಯೋಗ ಕೌಮುದಿ ಇತ್ಯುಕ್ತೆ ಕೌಮುದಿ ಇವ ಅಸ್ತಿ ಏಷಃ ಗ್ರಂಥಃ ಊಹಾಪೋಹ ಕೃತ ನಿಶ್ಚಿತ ವಿಚಾರಾಣಾಂ ಕೌಮುದಿ ಇವ ಅಸ್ತಿ ಇತಿ ಅಭಿಪ್ರಾಯಃ ತತ್ರ ಅಗ್ರಿಮ ಸ್ಲೈಡ್ ಮಧ್ಯೆ ಪಶ್ಯಾಮಃ ಭಾವಾರ್ಥಕಃ ಇತಿ ಯಥಾ ಹಿ ತತ್ರ ಜ್ಯೋತ್ಸ್ನಾ ಚಂದ್ರಿಕಾ ತಮೋನಿರಸ್ಯ ಸಕಲ ಭಾವಾನ್ ಪ್ರಕಾಶಯತಿ ತಥಾ ಇಯಂ ದಿನಕರ ಕಿರಣಜನಿತಂ ತಾಪಂ ಉಪಶಮಯತಿ ಜ್ಯೋತ್ಸ್ನಾ ತಥಾ ಇಯಮಪಿ ಇಯಂ ಕೌಮುದಿ ಲಘು ಸಿದ್ಧಾಂತ ಕೌಮುದಿ ಅಜ್ಞಾನಂ ದೂರೀಕೃತ್ಯ ಅಸ್ಮಾಕಂ ಅಜ್ಞಾನಂ ದೂರೀಕೃತ್ಯ ಮಹಾಭಾಷ್ಯಾದಿ ದುರೂಹ ಗ್ರಂಥ ಜನಿತಂ ತಾಪಂ ಉಪಶಮಯ್ಯ ಇತ್ಯುಕ್ತೆ ಮಹಾಭಾಷ್ಯಂ ಸಾಕ್ಷಾತ್ ಯಕ್ಕೋಪಿ ಪಠತಿ ಚೇತ್ ತಸ್ಯ ಭೀತಿ ಭವಿಷ್ಯತಿ ಯತೋ ಹಿ ಕಿಮರ್ಥಂ ಏವಂ ಭಾಷ್ಯಕಾರಃ ವದತಿ ಇತ್ಯಾದಿಕಂ ಜ್ಞಾನಂ ಸಾಕ್ಷಾತ್ ಪ್ರಾಪ್ತುಂ ನ ಶಕ್ಯತೆ ಅತಯೇವ ಮಹಾಭಾಷ್ಯಾದಿ ದುರೂಹ ಇತ್ಯುಕ್ತೆ ದುರೂಹ ಇತ್ಯುಕ್ತೆ ಕಷ್ಟ ಕಷ್ಟ ಗ್ರಂಥ ಜನಿತಂ ಆರಂಭಸ್ತರೆ ಕಷ್ಟಂ ಇತ್ಯರ್ಥಃ ಕಷ್ಟಂ ನಾಮ ಆರಂಭಸ್ತರೆ ಯಃ ಅಕೃತ ಪಾಣಿನೀಯ ಪ್ರವೇಶಃ ತಸ್ಯ ಕೃತೆ ಕಷ್ಟಂ ಮಹಾಭಾಷ್ಯಾದಿ ದುರೂಹ ಗ್ರಂಥ ಜನಿತಂ ತಾಪಂ ಕಷ್ಟಂ ಉಪಶಮಯ್ಯ ವ್ಯಾಕರಣ ಸಿದ್ಧಾಂತಾನ್ ಮಾನಸೇ ಪ್ರಕಟೀಕರೋತಿ ಇಯಂ ಗ್ರಂಥಃ ಲಘು ಸಿದ್ಧಾಂತ ಕೌಮುದಿ ಇತಿ ಭಾವಃ ಅತ್ರ ಮಂಗಳಾಚರಣಂ ಕೃತಂ ವಸ್ತು ನಿರ್ದೇಶಾತ್ಮಕಂ ಮಂಗಳಂ ಅತ್ರ ಅಸ್ತಿ ಆಶೀರ್ ನಮಸ್ಕ್ರಿಯಾ ವಸ್ತು ನಿರ್ದೇಶಃ ಇತಿ ಅಲಂಕಾರ ಶಾಸ್ತ್ರೇ ಉಚ್ಯತೆ ಮಂಗಳ ಶ್ಲೋಕಾಃ ಕಥಂ ಭವೇತ್ ಇತಿ ಅತ್ರ ವರದರಾಜೇನ ವಸ್ತು ನಿರ್ದೇಶೋಪಿ ಕೃತಂ ತತ್ರ ಮಂಗಳಾಚರಣಂ ಅಪಿ ಕೃತಂ ಸರಸ್ವತಿ ದೇವ್ಯಾಃ ನಮಸ್ಕಾರೋಪಿ ಕೃತಃ ಅನುಬಂಧ ಚತುಷ್ಟಯಂ ಇತಿ ಶಾಸ್ತ್ರೇ ಉಚ್ಯತೆ ಅನುಬಂಧ ಚತುಷ್ಟಯಂ ನಾಮ ಚತ್ವಾರಃ ಅಂಶಾಃ ಶಾಸ್ತ್ರೇ ಶಾಸ್ತ್ರೇಷು ಯಕ್ಕೋಪಿ ಗ್ರಂಥಃ ಪಠ್ಯತೆ ಚತ್ವಾರಃ ಅಂಶಾಃ ಪ್ರಥಮಂ ಜ್ಞಾತ್ವಾ ಏವ ತತ್ರ ಪ್ರವೇಶ ಕ್ರಿಯತೆ ಅಸ್ಯ ಗ್ರಂಥಸ್ಯ ವಿಷಯಃ ಕಃ ಪ್ರಯೋಜನಂ ಕಿಂ ಅಸ್ಯ ಗ್ರಂಥಸ್ಯ ಪಠನೇನ ಮಮ ಪ್ರಯೋಜನಂ ಭವಿಷ್ಯತಿ ವಾ ಉತ ನ ಅಸ್ಯ ಅಧಿಕಾರಿ ಯದಿ ಅಹಂ ಅಧಿಕಾರಿ ವಾ ಅಸ್ಯ ಅಸ್ಯ ಪ್ರಾಕ್ತನ ಪೂರ್ವಸಿದ್ಧತಾಂ ಮಯಾ ಕೃತಂ ಮಯಾ ಕೃತ ವಾ ಸಂಬಂಧ ತತ್ ಪ್ರತಿಪಾದ್ಯ ಪ್ರತಿಪಾದಕ ಭಾವ ಸಂಬಂಧ ಅಸ್ತಿ ಗ್ರಂಥ ವಿಷಯೋ ತತ್ರ ಗ್ರಂಥಕಾರಸ್ಯ ವಿಷಯ ಅಸ್ಮಾಭಿಃ ಕಿಂಚಿತ್ ಆದರಃ ಭವೇತ್ ಅತ್ರಾಪಿ ಮಂಗಳಶ್ಲೋಕೆ ಮಂಗಳಶ್ಲೋಕಂ ಪಠಿತ್ವಾ ಅಸ್ಮಾಭಿಃ ಅನುಬಂಧ ಚತುಷ್ಟಯಸ್ಯ ನಿರ್ಣಯ ಕರ್ತುಂ ಶಕ್ಯತೆ ವಿಷಯಃ ಕಃ ಶ್ಲೋಕೇನೈವ ಜ್ಞಾಯತೆ ಪಾಣಿನಿ ವ್ಯಾಕರಣ ಸಿದ್ಧಾಂತಃ ಏವ ವಿಷಯಃ ಅತ್ರ ಸೂತ್ರಾಣಿ ಸೂತ್ರಾಣಾಂ ಅರ್ಥಃ ಉದಾಹರಣಾನಿ ಏತೇ ಏವ ವಿಷಯಃ ಪರಂತು ತತ್ರ ಸಮಗ್ರಾಃ ವಿಷಯಃ ನ ಉಕ್ತಃ ಲಘವಃ ವಿಷಯಃ ಲಘವಃ ಸಿದ್ಧಾಂತಃ ಉಕ್ತಃ ಅಸ್ಯ ಪ್ರಯೋಜನಂ ಕಿಂ ಅಹಂ ಬಾಲೋಸ್ಮಿ इदानीं मया रूपाणाम् अध्ययनं तत्र शब्दरूपाणां धातुरूपाणां शब्दानां परिचयः काव्यकोशादि अध्ययनेन मया प्राप्तः. इदानीम् अहं पाणिनी किञ्चित् व्याकरणशास्त्रं प्रवेष्टुमिच्छामि. अतः पाणिनीव्याकरणशास्त्र अध्ययनमेव मम प्रयोजनम् इति आगच्छति. अधिकारिकः यः कोऽपि अत्र पाणिनीयव्याकरणशास्त्रं प्रविदिषुः अस्ति सः एव अधिकारी अस्ति. यदि पाणिनीयविषये यस्य कस्यापि आदरः नास्ति तर्हि सः अधिकारी न भविष्यति अस्य ग्रन्थस्य. सम्बन्धस्तु प्रतिपादकभावसम्बन्धः. एवम् अनुबन्धचतुष्टयमपि अत्र ग्रन्थकारेण उक्तम्, अस्माभिः अपि ज्ञातम्. अग्रिमकक्षायां संज्ञाप्रकरणस्य आरम्भं कुर्मः. माहेश्वरसूत्राणाम् अध्ययनमपि अग्रिमकक्षायां कुर्मः. एतावत्पर्यन्तं किमपि प्रश्नः अस्ति चेत् कृपया पृच्छन्तु. तत्र नोट्स् प्रथमकक्षायाः रेकार्डिङ्ग् प्रेसेण्टेशन् सर्वं sanskritfromhome.in तत्र लर्निङ्ग् मेनेज्मेण्ट् सिस्टम् अस्ति, तत्र स्थापितमस्ति. एकवारं कृपया रिजिस्टर् कुर्वन्तु. सर्वं फ्री एव अस्ति. रिजिस्टर् कृत्वा तत् आक्सेस् कुर्वन्तु इति प्रार्थये. तत्र डीटेल्स् सर्वं मया मेल् मध्ये प्रेषितमस्ति. अद्य अद्य सायङ्काले ये रिजिस्ट्रेशन् कृतवन्तः, ये पाठं प्रति आगतवन्तः, तेषां कृते प्रायः मेल् नागतं स्यात्. अग्रिमकक्षा इदानीं सोमवासराभ्यन्तरे तदपि प्रेषयामि. अत्र रघुवर्मा महोदयः पृच्छति, सजेस्टेड् लघुसिद्धान्तकौमुदी पुस्तकं, द चीपेस्ट् एडिशन् इस् लघुसिद्धान्तकौमुदी आफ् गीता प्रेस् गोरख्पुर्, दट् इस् मूलम् ओन्ली, प्रिण्ट् इस् वेरि गुड्. एनी पुस्तकम् इस् ओके इफ् यु हेव् मोतिलाल् बनारसिदास्, इफ् यु हेव् लघुसिद्धान्तकौमुदी आफ् दि स्माल् पब्लिकेशन् पाकेट् बुक् आल्सो इट् इस् ओके. मूलम् एव अपेक्षितम्. विवरणानि अत्र कक्षायां स्लैड् मध्ये एव सर्वं, नोट्स् सर्वम् अत्रैव लभ्यते. रेकार्डिङ्ग् अपि यदि कक्षायाः तत्र अकारणं किञ्चित् मिस् भवति चेत् तदपि प्राप्तुं शक्यते, रेकार्डिङ्ग् सर्वं प्राप्तुं शक्यते. इदानीन्तनपर्यन्तं मया गृहकार्यादिकं न दत्तं, गृहकार्यम् एक्ससैज् उदाहरणम् इत्यादिकं न दत्तम्. इदानीं संज्ञाप्रकरणस्य अनन्तरम् अहम् एक्ससैजस् इत्यादिकमपि दास्यामि. कृपया सर्वे भागं गृहीत्वा व्याकरणस्य आनन्दम् अनुभवन्तु इति प्रार्थये. यत्किमपि अन्यः संशयः अस्ति चेत् अपि कृपया मेल् अपि प्रेषयितुं शक्यते. तत्र sanskritfromhome@vyomalabs.in मध्ये किमपि सर्व कृपया प्रेषयतु. धन्यवादः. राम राम राम. पुनः मङ्गलाचरणं कृत्वा एव समापनं कुर्मः. शुभरात्रि. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि. नमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरो मम पाहि गुरो. विश्वनाथ अटेण्डेन्स् स्वीकृतं वा?
अद्भुत कट्टकर्चना.